एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा अद्य भाद्र शुक्ल तृतीया तिथौ हिन्दू महिलाः उपवास पुरस्सरं हरितालिकायाः व्रतमाचरन्ति अस्मिन् पर्वणि उमा महेश्वरयोः पूजनस्तवने विधीयते अस्य व्रतस्य प्रभावेण अविवाहिताः महिलाः सुयोग्य वरं विवाहिताश्च अखण्ड सुख सौभाग्ये लभन्ते इति शास्त्रीयं वचः उपलभ्यते पुरा हिमालय तनया उमा पशुपतिम पतिम वरितुकामा निर्जलम उपोष्य व्रतमिदं समाचरत यस्य प्रभावेण सा स्वाभिलषितं पतिमवाप ततः प्रभृतिः सौभाग्य कामासु नारीषु अस्य व्रतस्य अनुष्ठान परम्परा प्रारब्धेति हरितालिकायाः महत्व सम्बन्धे इति वृत्तम् उपलभ्यते अस्मिन् दिने नूतनानि वसनानि विविधानि आभूषणानि च परिधाय भजन कीर्तन नर्तनादिषु व्याप्ता नार्यः श्री पशुपतिनाथ मन्दिरे अन्येषु शिवालय परिसरेषु च दृश्यन्ते पत्युश्चिरायु आयुष्य कामनया दाम्पत्य जीवनस्य सुखाभिलाषया च व्रतमिदं हिन्दू महिलासु प्रचलितमस्ति हरितालिकायाः अवसरे अद्य प्रातः त्रिवादनादेव पशुपतिनाथ मन्दिरस्य चत्वारि एव द्वाराणि समुद्घाटितानि सन्ति अत्रान्तरे हिन्दू नारीणां महतः हरितालिका पर्वण उपलक्ष्ये राष्ट्रपतिना रामचन्द्र पौडेलेन शुभकामना सन्देशं प्रयच्छता सांस्कृतिक सहिष्णुतायाः सामाजिकैकतायाश्च प्रति रूपेण विद्यमाने हरितालिका पर्वणि नेपाली नारीभिः स्वसौभाग्याय परिवारजनानां समृद्धये च व्रतं समाचर्य शिव पार्वत्योः पूजाराधनयोः सम्पादनस्य प्रचलनम् अस्तीति स्मारयन् एतादृशैः पर्वभिः नेपालिनः एकतायाः सूत्रे आबद्धान् विधाय धार्मिक सहिष्णुतायाः सद्भावस्य च संस्थापन पुरस्सरं परस्परं हर्षस्य आदान प्रदानस्य मनोरञ्जनस्य च अवसरोऽपि प्रदीयमानोऽस्तीति उक्तं वर्तते एवमेव उपराष्ट्रपतिना रामसाय प्रसाद यादवेन च हरितालिकायाः अवसरे स्वदेशे विदेशेषु च विद्यमानासु सम्पूर्णासु भगिनीषु सुख शान्ति समृद्धि सुस्वास्थ्य दीर्घायुष्याणां शुभकामनाम् अभिव्यज्य पर्वेदं महिला मुक्तेः स्वतन्त्रतायाश्च भावनायाः मुखरीकरणस्य पर्व अस्तीति भाषितं वर्तते राष्ट्रपतिः रामचन्द्र पौडेलः आवधिकं निर्वाचनं लोकतन्त्रस्याधारोऽस्तीति चर्चयन् राज्यं प्रति जनतायाः लाभस्य स्वामित्वस्य च स्थापना अस्मादेव सम्भवतीति धारणां व्यक्तवान् अस्ति राष्ट्रपतिना रामचन्द्र पौडेलेन सह दक्षिणैशैक देशानां निर्वाचन निकायानां संयुक्त मञ्चस्य द्वादशस्य सम्मेलनस्य क्रमे नेपाले आगतै मञ्चस्य सदस्य राष्ट्राणां प्रमुख निर्वाचनायुक्तै सह यो विहितस्य शिष्टाचार मेलनस्य क्रमे राष्ट्रपतिः पौडेलः राज्य जनतायाः प्राप्तेः स्वामित्वस्य च स्थापनायै निर्वाचनं स्वच्छं निष्पक्षं छलरहितं च अपेक्षते इति प्रावोचत् तदवसरे राष्ट्रपतिः पौडेलः दक्षिणैशैक राष्ट्रेषु निर्वाचनानि व्यवस्थाप्य इतोप्यधिकं स्वतन्त्रं निष्पक्षं भयरहितं च विधातुम् इदं सम्मेलनं सफलं भवतु इति शुभकामनां व्यक्तवान् तदवसरे भारत पाकिस्तान बंगलादेश मालदीव्स राष्ट्राणां निर्वाचन आयोगस्य प्रमुखाणां प्रतिनिधिनां च सहभागिता आसीत् दक्षिणैशैक राष्ट्राणां निर्वाचन निकायानां फेम्बोसा नाम्नो मञ्चस्य द्वादशं सम्मेलनं काष्ठमण्डप घोषणापत्रं पारितीकृत्य सम्पन्नमस्ति काष्ठमण्डप घोषणापत्रेण फेम्बोसा मञ्चस्य अन्तर्गतानां निर्वाचन व्यवस्थापन निकायानां संस्थागतां मानवीयां च क्षमतां दृढयितुं संहत्य कार्यं कर्तुं सदस्य राष्ट्रेषु परस्परं सहयोगं वर्धयितुं च प्रतिबद्धता व्यक्ता अस्ति अनेन द्वादशीन सम्मेलनेन नेपाल फेम्बोसा मञ्चस्य अध्यक्षपदे निर्वाचितो वर्तते संघीय सर्वकारीय सेवा सम्बद्धं विधेयकम् आश्रित्य विमर्शनं प्रारब्धम् अवर्तते प्रतिनिधिसभायाः राज्यव्यवस्था सुशासन समित्या ह्य संघीय सर्वकारीय सेवायाः घटन संचालन शपथैश्च सम्बन्धे व्यवस्थातुं निर्मितं गत विक्रमवर्षीयं विधेयकम् आधृत्य सैद्धान्तिक विमर्शनं विहितम् अवर्तते विधेयकस्य विमर्शनस्य क्रमे संघीय विषय सामान्य प्रशासन मन्त्री राजकुमार गुप्ता देशस्य प्रशासनिक प्रणालीं शासकीय व्यवस्थानुसारं सुव्यवस्थितां कार्यात्मक परिणाममुखां च विधातुं विधेयकस्य आवश्यकता अस्ति इति समस्पष्टयत् विधेयके चतुर्विंशति चतुर्विंशत्यधिक शते समूहेषु सांसदै सहस्रं त्र्यशीत्यधिक पञ्चाशतं च संशोधन प्रस्तावः पञ्जीकारितः आसन्। सर्वकारेण दुग्धोत्पादक कृषकेभ्य अवशिष्टं प्रदेय वित्तं प्रदातुं दुग्ध विकास संस्थानाय तत्कालं षष्टि कोटि रूप्यकाणि ऋण स्वरूपेण दातुं स्वीकृति प्रदानाय निर्णीतं वर्तते। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये ह्य सायं उपविष्टेन मन्त्री परिषद उपवेशेन कृषकेभ्य गतार्थिक वर्षस्य प्रदेयं अवशिष्टं वित्तं प्रदातुं प्रविधे सुधाराय व्यवसायस्य विस्ताराय च अर्थमन्त्रालयाय ऋणं प्रदातुं स्वीकृति प्रदानाय निर्णीतम् इति उपवेशस्य पश्चात् सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ अज्ञापयत् इति समाचारः।